अत्रिजं शंकरं ब्रह्मनारायणं सर्वदेवात्मकं दत्तदेवं गुरुं अत्रिजं शंकरं ब्रह्मनारायणं सर्वदेवात्मकं दत्तदेवं गुरुं इंदिरामंदिरं पार्वतीनायकं भारतीवल्लभं धर्मदेन्वाश्रयं शंखचक्रान्वितं शूलढाकाधरं पात्रमालाकरं प्राणनाथं भजे अत्रिजं शंकरं ब्रह्मनारायणं सर्वदेवात्मकं दत्तदेवं गुरुं पावनैरागमैः सारमेयायितैः पादपद्मावृतैः मन्त्रमन्द्रस्वरैः सञ्चलद्भिषणैः सञ्चलन्तं प्रभुं त्राननं षट्करं योगिराजं भजे अत्रिजं शंकरं ब्रह्मनारायणं सर्वदेवात्मकं दत्तदेवं गुरुं केवलं निर्गुणं मूर्तिभूतं जगत् सृष्टिरक्षालय धारहेतोस्त्रिधा अत्रिणा प्रार्थितं युक्तमूर्तित्रयं दृष्टमेकं पुनस्तं त्रिमूर्त्याननं अत्रिजं शंकरं ब्रह्मनारायणं सर्वदेवात्मकं दत्तदेवं गुरुं मातृभावानसूयाकृते गर्भजं दृष्टबालत्रयं युक्तमेकं सकृत् ब्रह्मचर्यव्रतं दण्डपाणिं वटुं तापसैः प्रस्थितं वृद्धशिष्यैर्भजे अत्रिजं शंकरं ब्रह्मनारायणं सर्वदेवात्मकं दत्तदेवं गुरुं हंसवाहं क्वचित् पक्षिराड्वाहनं नन्दिना वा क्वचित् सञ्चरन्तं विभुं नास्तिकानामतं नाशयन्तं सदा पण्डिताखण्डनं स्तौमि योगीश्वरम् अत्रिजं शंकरं ब्रह्मनारायणं सर्वदेवात्मकं दत्तदेवं गुरुं सर्वदेवात्मकं दत्तदेवं गुरुं सर्वदेवात्मकं दत्तदेवं गुरुं।